अथ सप्तदशोऽध्यायः शिवपार्वतीविहारवर्णनम् सूत उवाच इति श्रुत्वास्य वचनम् मार्कण्डेयोऽभ्यभाषत
मार्कण्डेय उवाच
श्रुतमेव मया देव श्रोतव्यम् भवतो मुखात्
तथापि
कौतुकेनाहम् आक्रान्तो मुनयोऽप्यमे गौर्या कथम् तपस्तप्तम् महादेव्या प्रकथ्यताम् नन्दिकेश्वर उवाच कथयामि तदप्येतद् यथाधिगतमात्मना शृणु त्वमधानेन मार्कण्डेयमहामते ननु जानासि तत्पूर्वम्
यथा दाक्षायणीम् शिवः
उपयेमे सतीम् नाम सतीनामधिदेवताम्
यथा च सा कृता भर्तुः
द्रुवि रक्षप्रजापदौ
योगाभासीदात्मीयम् वपुरित्यपि ते श्रुतम्
तदा राज्ञानिघ्नेन वीरभद्रेण यत्कृतम्
अध्वरध्वंसनम् दक्षस्यापि
ते विदितम् मात अश्रंशीस्तस्य
दक्षस्य
कणैश्शीर्षासखण्डनम् ब्रह्माच्युतेन्द्रमुख्यानाम् देवानामपि शिक्षणम्
दन्तघातम् रवेः पाणिपाटनम् जातवेदसः
अदिति प्रभृतीनाम् च
विद्यस्त्रीणाम् पराभवम्
सा च देवी पुनर्जन्म
देभेमतो गृहे
उमेति पार्वतीत्याख्याम् द्वितीयाम् बिभ्रति पुनः
देवस्थाणुमनेताम् च
परिचर्या पराम् रहः
अरुणोदयशुकामधाकालवन्विना
जितेन्द्रियम् जलम् देवम् क्वापि यातम् गणैः सह
तपोभिस्तोषयामास
गौरीशिखरवासिनीम्
उपयम्याथ
ताम् देवो वृत्तान्तैश्चित्तखण्डिभिः रमयामास चैकान्ते मोदस्वेति विलासिनीम्
वैधव्यभिन्नया रत्या प्रार्थिता
शैलनन्दिनी
कामपीठे
तपस्यन्ति कामम् प्रत्युदीपयत पुनश्च मेनया मात्रा पित्रा च हिमभूभृता
आनीता भवनम्
भद्रा
सा कञ्चिरमसंस्कृतम्
तदा शुभम् तदा
आनीता भवनम्
भद्रा
सा कञ्चिरमरम् स्तसा
तदा शुभनिशुम्भाख्यौ वेभाते वेधसो वरम् देववदानमर्त्येषु
मास्तु न पुरुषाङ्गतिः
इति तद्वचनम् श्रुत्वा जातत्रासैः सुपर्वभिः
अभ्यर्थितो
वद्देवो रहश्चक्रधराजिभिः
माभीष्टभद्रकालेण
तथा प्रतिविधीयते
यथा
निशूचितौ स्याताम्
तादृशौ
दानवामिति
दत्ता
वयानुमुदादीन्
विसृज्यान्धकसूदनः
अन्तः
पुरगतो
रेमे
देव्या सह
यथा पुरा
कदाचिन्मर्मलक्ष्येण
प्रीत्या
कालीति निन्दिता
तस्य
प्रीत्यै
कालिका च
त्वयमेवाजहान्निजाम्
यत्रोत्क्षिप्तवती
जन्म
स्वेच्छया
परमेश्वरि
महाकाशी
प्रपाताख्यम्
तदभूत्
क्षेत्रमुत्तमम्
सा च
कौशिकी
नाम्ना
काली
विन्ध्याद्रिवासिनी
तपस्यन्ते
वृषस्यन्तौ
तौ
जघानमहासुरौ
देवी
च गौरी शिखरे
तस्मिन्नेव
मनोहरे
तपोभिर्लब्ध
गौरीत्वाद
भक्तारम्
समतोषयत
क्रमेण
दौर्हृदवती
भूत्वा
प्रासूत
पार्वती
गजाननम्
च हेरम्बम्
सेनान्यम्
च षडाननम्
तौ
चागमिदः
प्राहुः
नारायण
चतुर्मुखौ
पूर्वापराधशुद्ध्यर्थम्
देवी
गर्भसमुद्भवम्
वर्धमानौ
च तौ बालौ
पित्रोरालोकमानयोः
मग्नयोरिव
वर्षाब्धौ
प्रेम
ग्रन्थिरभूदृढा
जातुवीणामिनादेन
कदाचिच्चित्रलेखनैः
विजह्रदुःशिवौ
स्वैरमेकदा
मण्डलैर्मिथः
जातुविद्यागमालाद्वैः
कदाचिञ्चित्रवस्तुभिः
एकदा
लोकवृत्तान्तैः
दम्पतिभ्याम्
विनोदितम्
पुष्पावचन
जातो
कदाचिद्वारिखेलनैः
వాణిఖేలనైః అదీవ్యతాంచరాగాద్రం దూరకేలిభిరేకదా మైనాకేనార్పితౌ జాతౌ మేనయా జాతు పూజితౌ జాత్వరహితౌ హిమవత దంపతీతౌ వినోదితౌ జాతుద్యూత వినోదేన గీతగోష్ఠ్యా కదాచన ఏకదా దానలీలాభిః శివౌ చిక్రీడతు స్థిరం జ్యూత నిర్జితమాచ్ఛిద్య
పత్యురుత్సంగతాం
గతం
వలయీకృతమేణాంకం
తాటంగీకృతవత్సుమా ఇతి తౌ పితరౌ చరాచరాణాం నివసంతౌ కనకాచలాదితేషు రుచిరేషు పదేషు
కామభోగాత్
సుచిరం కిలాన్మభూతాం. ఇది శ్రీస్కాందే మహాపురాణే ఏకాశీతి సహస్ర్యాం సంహితాయాం ప్రథమే మాహేశ్వరఖండే అరుణాచల మహాత్మ్య ఉత్తరార్ధే శివపార్వతీ విహార వర్ణనం నామ సప్తదశోధ్యాయ. అథ అష్టాదశోధ్యాయ పార్వతీకృతారుణాచలేశ్వర పరిచరణవర్ణనం.
నందీశ్వర ఉవాచ గార్హస్థ్యం బిభ్రతి భర్తుః ఏకాం వ్రతలవాసినః పక్వాన్నపానైః సా తత్ర పర్యతర్పయత ప్రజాః యాతు సంధ్యానుసంధానం
ముకులీకృతలోచనం బద్ధాంజలిపుటం
దేవం అద్రాక్షేదద్రినందిని ధ్యాయతే నూనమునా కాపి సౌభాగ్యశాలిని క్రియతే యన్మయి ప్రేమ తన్మన్యే వంచనం మాద కథం విజ్ఞాయతే పుంసాం కుటిలా మానసీ స్థితిః మిథ్యోపచారాద్దక్షేణ వంచితాస్మ్యాం ఋషరం మైరాక్షణ్యమేవాస్య మన్యే మనసి చేద్రాః జనసౌభాగ్యవాన్యస్మాద్ భవతి స్నేహభాజనం అద్య ప్రభృతి తేజసః తపోభిః క్రీడైత్యపి ముగ్ధేంద్రుశేఖరేణాస్మి విప్రలబ్ధా స్మరాణ అసమానానురాగేషు నారీణాం మూఢచేతసాం సౌభాగ్యగర్వో లోకేషు పరిహాసాయ కేవలం ఇతి ప్రణయరోషేణ దేవ్యాః కలుషచేతసః హవ్యవాహాత పారీఢ
ఇవాననమలక్ష్యత
వా బాష్పవారి ప్రవేతస్య
ఆతామ్రేక విలోచనే నీలోత్పలే జలాపూర్ణే
ఇవ భూమ్నా విరేయసు
యత్తస్యాధీనతిలకం భృగోర్యుగమమన్యత ద్వేధాకృతమివాదర్శి మన్మథస్య శరాసనం అంతర్మన్యుభలేనాస్యాః కంపతి స్మాకరచ్ఛదః మోహప్రవాలస్థాయీవ రక్తాశోకస్య పల్లవః అతీవరజ్యమానం తత్ పార్వత్యా గండమండలం
షాణామఘర్షమాణిక్య
దర్పణప్రతిమం బభూవ అంతర్మే పదుతౌ తస్యాః శతం పాతే పయోధరం పద్మకోశాభిమానతస్థ
చంచలీక ప్రచాలితౌ అచింతయచ్చ సంభూయ
సౌభాగ్యాభావతో నను
మమాయమన్యస్త్రీ చింతాం కురుతే చంద్రభూషణః తదైషా కాపి యాస్తామే కిమత్రాస్తేక మామమ
తదైషా క్వాపి యాస్యామి కిమత్రాస్త్యేకమ
యామమ
తపస్యంతే చ సౌభాగ్యం
అర్జనీయం మయాధునా నిమీరితాక్షిణ్యేవాస్య గంతవ్యం నిభృతం మయా నచేన్మాం
బాలయత్యేష కంఠాపరిభాషితైః వత్సౌతు వర్ధయత్యేవ గంగేయమతివత్సలా దేవస్తు న స్మరంత్యేవ మామన్యస్త్రీ పరాయణః ఇతి నిశ్చిత్య దేవస్య పార్శ్వాదాశు నివృత్య
అనిర్దిశ్యతి శంకాంచిత యాతుం వ్యగ్రా ప్రచక్రమే. जलावती माल्यवती मालिनी विरजा जया वारिता अपि संरम्भात स्वामिनी मन्मय स्वयं तत्र सापि गिरीन् पुण्यान् वनानि नगराणि वा
सरांसि सरितश्चैषा विजयार
समन्ततः भ्रमन्ति सह्यपादेषु द्राविडाक्षेषु निवृति तीर्त्वा शक्यापगाम् देवी विजयाम् समभाषत दृश्योऽयम् नातिदूरेण पुरस्तात् सकलारुणः शृङ्गैः संरक्ष्यतेष्टाभिः नूनम् माहात्म्यवान् गिरिः उपत्यकासु चैतस्य दृश्यन्ते तापसाश्रमाः अतीव पावनः शान्ताः पुण्यारण्यमनोहराः गत्वा निरूपयामासान्
इमान् पुण्याश्रमान्
वयम् रचीदार्थ प्रसीदतितरान् चेत एषाम् सन्दर्शनेन मे
एवमाह्लादयत्यालिम् क्रमेण गिरिनन्दिनी तस्याद्रेर्जग्मुषा पार्श्वम् अपश्यत्
अपश्यत् कञ्चिदाश्रमम् लूतास्तन्तोयन्
लूतास्तन्तोमयन्त्यत्र कुम्भीराः शैवलान्यपि पिशून् पुष्णन्ति
नीवालैः
सफलान् भूयामः हरन्त्यवकरान् वालैः चमरास्फीतरोमभिः समीकुर्वन्ति चैद्भूतैः विषाणैर्यत्र सैरिभाः वानराः फलपुष्पाणि मधुपत्राणि भल्लुकाः क्रोडास्थानीय मृत्स्नाञ्च यत्कर्षिभ्यो नयन्त्यहो काको लोकैः शुकश्येनैः मृगव्याघ्रैर्हरिद्विपैः कलापि सर्पैर्यत्राकुः मार्जारैः सौहृदम् श्रितम् हूयमानपुरोडाश द्रव्यसौरभ्यहारिणि यत्र द्रुमान्तरोलेभ्यो धूम्या निर्याति पावनी पठन्ति
शतमरुद्रीयम्
यत्र वायसवैरिणः गृणन्ति काकास्तोत्राणि सामगायन्ति सारिकाः शाकशालिषु शार्दूलाः चरन्ति च तैलगाः सिञ्चन्ति पुष्कराम्भोभिः कुम्भिनो यत्र पादपान् कतिच्च शोभने देशे पुण्ये पुण्यमनोहरे ददर्शसातपस्यन्तम् यम् कञ्चिद्दृशचितत्तमम् अधस्तात् सप्तवर्णस्य चित्रव्याघ्रध्वगासने बद्धवीरासनम् सम्यक् पावने कुशविष्टरे
शालिशूकारुणाभाभिः
जटाभिर्भस्मपाण्डुरम् अचञ्चलाभिर्विद्यद्भिः इव शारदवारिदम्
नासाग्रनिश्चलाशम् समस्वस्फुरिताधरम् आवर्तयन्तम्
रुद्राक्षमालिकाभद्रपाणिना
प्रत्यग्रनिर्णे जनतो
यत्यस्यानदधाञ्चले
वसानमल्कलये सन्ध्याग्रे भूमृताम् यथा
षड्वर्गहिंस्रबन्धाय
स्थापिताम्
मागुरामिष
उपवीतत्रयीमारादुरो गर्तस्य बिभ्रतम्
कृतोचितोपचारास
तमप्राक्षीतपोधनम्
पार्वत्युवाच
कस्त्वम् कोऽयम् गिरिवरो यत्त्वम् कुरुषेतपः पुनः कुरुषेतपः
स चाहारुणशैलोऽयम् पुण्यक्षेत्रेषु पूजितः गौतमोऽहम् निर्मुक्त्यै तपसाराधये शिवम् अवकाश
एवमाह्लादयत्यादिम् क्रमेण गिरिनन्दिनी तस्याद्रेर्जग्मुषा पार्श्वम् अपश्यत् कन्तिदाश्रमम्
लोतास्तन्तोन्नयन्त्यत्र कुम्भीरा शैवलान्यपि पिशून् पुष्णन्ति नीवालैः सफरान् भूरिमायवः
हरञ्जवकलान् बालैः चमरास्फीतरोमभिः समीकुर्वन्ति चोद्भूतैः विषाणैर्यत्र सैरिभाः
वानराः फलपुष्पाणि मधुपत्राणि भल्लुकाः क्रोडास्नानीय मृत्स्नां च यत्कर्षिभ्यो नयन्त्यहो
काकोलूकैः शुकश्येनैः मृगम् व्याघ्रैः हरिद्मितैः कदापि सर्पैर्यत्राखु मार्जारे सौहृदम् श्रितम्
हूयमान पुरोडाश द्रव्यसौरभ्य हारिणि यत्र द्रुमान्तरोलेभ्यो धूम्या निर्याति पावनी
पठन्ति शतरुद्रीयम् यत्र वायसवैरिणः गृह्णन्ति काकास्तोत्राणि सामगायन्ति सारिकाः
शाकशालिषु शार्दूलाश्चरन्ति च तथैव गाः सिञ्चन्ति पुष्कराम्भोभिः कुम्भिनो यत्र पादपान्
क्वचिच्च शोभने देशे पुण्ये पुण्यमनोहरे ददर्श सा तपस्यन्तम् व्यङ्कञ्चिद्दृशि सत्तमम्
अधस्तातु सप्तपर्णस्य चित्रव्याघ्रत्वगासने बद्धवीरासनम् सम्यक् पावने कुशविष्टरे
शालिशूकारुणाभाभिः यशाभिर्भस्म पाण्डुरम् अचञ्चलाभिर्विद्मद्भिः इव शारदवारिदम्
नासाग्रनिश्चलदृशम् समप्रस्फुरिताधरम् आवर्तयन्तम् रुद्राक्षमालिकामग्रपाणिना
प्रत्यग्रनिर्णे जनतो हृत्यश्यादशाञ्चले वसानम् बल्कलयुगे सन्ध्याम्रे भूभृताम् यथा
रिपीट्
प्रत्यग्रनिर्णे जनतो ह्यत्यश्यानदशाञ्चले वसानम् बल्कलयुगे सन्ध्याम्रे भूभृताम् यथा
षड्वर्गहिंस्रबन्धाय स्थापिताम् वागुरामिष उपवीतत्रीमारानुरोगर्तस्य बिभ्रतम्
षड्वर्गहिंस्रबन्धाय स्थापिताम् वागुरामिव उपवीतत्रयीमारा दुरोर्गर्तस्य बिभ्रतम्
कृतोचितोपचारा स तमप्राक्षीतपोधनम् पार्वत्युवाच कस्त्वम् कोऽयम् गिरिवरो यत्र त्वम् कुरुषे तपः
सा चाहारुणशैलोऽयम् पुण्यक्षेत्रेषु पूजिता गौतमोऽहम् मुनिर्मुख्यै तपसा राधये शिवम् इत्युक्त्वा बीजयादीनाम् मुखेनैनामुमाम् विदन् प्रणम्य भक्त्या बहुशो नीतवानुटजम् निजम्
कन्दमूलफलादैश्च कृतातिथ्यामि माम् मुनिः जगन्मङ्गलमूलाय तपसे चान्वमन्यत
ज्योतिस्तम्भस्य सम्भूतिम् आरभ्यानुक्रमेण सह जगादचास्यै शोणाद्रेः महिमानमशेषतः
शोणाद्रेः पूर्वदिग्भागे स्थलीश्वरम् इति स्थलम् यत्र सन्निहितः शम्भुर्ज्योतिर्लिङ्गात्मताङ्गतः
वैकुण्ठपरमेष्ट्यादि गीर्वाणनिविदीकृते न तत्र मे तपत्कर्तुम् अव्याक्षेपेण शक्यते
अयम् शोणगिरेः पादः प्रवालाचलनामवान् पुण्यारण्योपरुद्धत्वाद् रहस्यत्वम् विगाहते
तत एवाहमत्रैव प्रतिष्ठाप्य त्रिलोचनम् आराधयेव यथाशक्ति तपोभिः कल्पितात्मभिः
ममाश्रमसमीपेऽस्मिन् पुण्यक्षेत्रमिदम् महत् क्रियताम् आश्रमो देव्या कर्तव्यम् हि तपश्चिरम्
मुनेरेवमनुज्ञानात् कृताश्रमपरिग्रह उदयुङ्क्तस्तपः कर्तुम् सुमहत्पर्वतात्मजा
रिपीट्
मुनेरेवामनुज्ञानात् कृताश्रमपरिग्रह उदयुङ्क्तस्तपः कर्तुम् सुमहत्पर्वतात्मजा
आश्रमम् रक्षितुम् सत्यवतीम् काननवासिनीम् शुभगाम दुन्धुमारिम् च प्रागाद्याशास्वतिष्ठितपत् రిపీట్ ఆశ్రమం రక్షితుం సత్యవతీం కాననవాసినీం శుభగామ దుందుమారించ ప్రాగాద్యాశాస్వతిష్ఠిపత్
తపోవనస్య సర్వస్య రక్షార్థం సా సమాదిశత దుర్గామనర్గమలస్ఫూర్తిం ఆజ్ఞా నిర్వహణ నిర్వాహణక్షమాం
అనంతరం సాధం మిల్లం మందార ప్రసవోచితం జటాభరత్వం తపసే గమయామాస పార్వతీ
హంస చిన్న దశం హిత్వా దుకూలం ఇహ కాలభూ పరుషం సుకుమారాంగి పదిధత్తే స్మ బల్కలం
అపి ప్రసూన ముచయ నిస్సహాంగులి పల్లవ అలావీదతి తీక్ష్ణాగ్రాణ్య వికారం కుశానిసా
వజ్రసూచీ నిర్భరాంగైః అవచ్ఛిన్నాని కంటకైః శిరీష మృధ్వీ షాండిల్య పల్లవాన్యుధికాయయా
పావన్యాం కమలానద్యాం ప్రాతర్విహితమజ్జన అర్చయామాస రక్తాబ్జైర్ యథా విధి విభాకరం
దర్భాఖ్యతతిలోన్నిశ్చైః గౌరీ శ్రీనదివారిభిః దీవీ నిర్వర్తయామాస దేవర్షి పితృతర్పణం
చాలుకామండలే సూర్యం ఆవాహ్యాభ్యర్చ్య పంకజైః కృత ప్రదక్షిణా గౌరీ ప్రణనామ సహస్రశః
స్వయమేవ ప్రతిష్టాప్య లింగం కిమపి శంకరం ఆగమోక్తేన విధినా పూజయామాస పార్వతీ
ఆసనేన చ మూర్త్యా చ మూలేనాంగైశ్చ సారమిం దండి పింగల ముఖ్యాశ్చ శక్తిర్దీప్తాదివా అపి ఆసనేన చ మూర్త్యా చ మూలేనాంగైశ్చ సారమిం దండి పింగల ముఖ్యాశ్చ శక్తిర్దీప్తాదికా అపి
తత్తంతిక్షుచ సోమాదీన గ్రహాంధేంద్వాదిముద్రయా తేజశ్చండే త్వార్చయిత్వా నిర్మాల్యం చన్యవేదయత్
అర్ఘ్యేనాతీవ శుద్ధేన సంప్రోక్ష్య చ సమంతతః ద్వారవాస్తు సమభ్యర్చ్య న్యాసానపి చకారసా
భూతశుద్ధిం విధాయాన్వా గంతర్యాగం చకారసా హృది పద్మాసనే చార్చ్య జ్ఞానధర్మాదికాన్ క్రమాత్
శక్తిర్దలేషు వామాదీర్దలాగ్రే సూర్యవేధసో కేసరాగ్రే సోమ విష్ణు కర్ణికాగ్రేగ్నిమధూర్జటి
తదూర్ధ్వే శక్తి చక్రం చ విన్యస్త బ్రహ్మ పంచక అంగైర్దత్వా చ పాద్యాదీన
ప్రాదాచందన పుష్పాది ధూప దీప ప్రదాయిని భూయోపి పంచ బ్రహ్మాణి షడంగాన్యప్యపూజయత్
తప్తద్దిక్షుజ శక్రాదీన వజ్రాదీంశ్చ విధానతః కృత్వా సకోపచారాంశ్చ అష్టపుష్పికాం
రిపీట్ తత్తద్దిక్షుజ శక్రాదీన్ వజ్రాదీంశ్చ విధానతః కృత్వా సర్వోపచారాశ్చ వితతారాష్టపుష్పికాం పంచవక్త్రాణి చాభ్యర్చ్య కృతచండేశ్వరార్చన ప్రదక్షిణా ప్రణామాద్యైః నిత్యం శివ పూజయత్
శివాగమోక్తమిధినా ద్రవ్యై సౌభాగ్యదాయిభిః సా జుహావచ పూజాంతే ప్రణీతే జాతవేదసే
పరికల్పితోపచారా చ కందమూల ఫలాదికైః స్వయం కృతోపచారేయం అతిథీన్ అభ్యపూజేత్
అంగుష్ఠాగ్రేణ తిష్ఠంతి గ్రీష్మే పంచాగ్నిమధ్యతః హృదే చ శిశిరే చంద్ర పీయూషాప్యామితా భవత్
వర్షరాత్రీషు ధారాభిః సహ వారిధరా పునః सौदामिनीव ददृशे तमसि स्तिमिताकृतिः
पाणिपादेन पद्मानि मुखेन च कदानिधिम् प्रदर्शयत्यनायाथ इन्येषा हैमनिर्निशाः
नीवारबीजदानेन सा मृगानप्यपोषयत् अज्ञातहिंसाभिभवानाश्रमोपान्तवर्तिनः
कृतालबालसनिलैः सुबालाकलशाकृतैः वात्सल्याद्वद्वयामास पूर्णावाश्रमपादपान्
प्रदक्षिणाम् कृतवती शोणशैलम् गिरीन्द्रजा सा मनोरथसंसिद्ध्यै नित्यम् सह सखीजनैः
पञ्चाक्षरीम् यजापैष शिवस्तोत्राण्युदैरयत दध्यौ च देवम् मनसा शोणपर्वतरूपिणम्
अनुदिनमरुणाचलेश्वरम् सा
प्रणीतवती विहित प्रदक्षिणाद्यैः शिवनिगमभिधान वेदिनी साव्यर्चय अद्रिसुताचिरम् तपस्याम् अनुदिनमरुणाचलेश्वरम् सा प्रणतवती विहित प्रदक्षिणाद्यैः शिवनिगम विधान वेदिनी साव्य अद्रिसुताचिरम् तपस्याम्
इति अष्टादशोऽध्यायः.
ॐ नमो भगवते श्रीरमणाय. देव्याः तपश्चर्यायाम् दुर्गाकृतमहिषासुरवधवर्णनम्. नन्दिकेश्वर उवाच, तावत् कुतश्चिदाकर्ण्य तत्रस्थाम् महिषासुरः अवज्ञातुसुरारातिः विध्वंसितपुरन्दरः सर्वलोकजयी सिद्ध विद्याधरभयावहः दुर्निग्रहो वरादासीत शस्त्रास्त्रैरखिलैरपि तीक्ष्णानामपि शापानाम् अप्यगोचरताम् गतः दर्पद्भिर्दानवैदैत्यैः कौणपैश्च निषेवितः.
दूषकोमुनिपत्नीनाम् धर्ममार्गोपघातकः बलात् पुलोम्नो नमुचेर्वृत्रादपि बलाधिकः हिरण्यकशिपोर्वश्यो वंश्यो
इवापरः
ताम् विलोभयितुम् काञ्चिकप्राहिणोत्किलदूतिकाम् ततः सा तापसी वेषधारिणी गिरिजाम् प्रति सखी समक्ष एवेदम् उवाचानुचितम् वचः अरारुभीषणे भीरो निवसस्यत्र किम्मने विहर्तुमुचितारम्येष्वघो रिपीट् अरारुभीषणे भीरो निवसस्यत्र किं वने विहर्तुमुचितारम्येष्वरोधनमेष्मसु.
किमर्थम् बाध्यचित्तम् ते यौवने भोगनिर्ब्रहम् निवेशितम् तपसि च दैवैत्रैरपि दुष्करे हंसतूरमयीम् शय्याम् मुक्तामय मितानिकाम् हित्वा किमिति मृद्वङ्गी सुप्यते परुषाश्मसु ते तपो जडो मृडो दृष्ट्या प्रागेवास्ति स्वयोच्छितः. तवानुरूपो नैवान्यो विद्यते दिविशस्सु च.
किन्तु त्रैलोक्यनाथोऽस्ति महिषो दानवेश्वरः यदि द्रक्ष्यसि तम् सुभ्रु त्यक्ष्यस्येव क्षणात्तपः किम् निह्नवेन नन्मेष श्रुत्वा सर्वम् चिरात् प्रभुः सप्राहिणोदुपानेतुम् दूतिका माम् स्मरातुरः.
इत्यत्यन्तविरुद्धन्ताम् ब्रुवाणामसमञ्जसम् देव्याश्चित्तास्थितिम् ज्ञात्वा
देव्याश्चित्तज्ञात्वा
विजया निरकाशयत सा चातिरोषेण कृत प्रतिज्ञा दैत्यरूपिकाम्. गत्वा विजितवृत्तान्तम् अकरोन्महिषासुरम् सोऽपि तत्सर्वमाकर्ण्य विषातीभागुणे क्षणः देवीम् जिघृक्षुरभ्यागा धृतो दैतेयकोटिभिः
स्यन्दनैर्विग्रदैरश्वैः पत्तिभिश्च समन्ततः भुवमाच्छादयामास ध्वजैश्च गगनान्तरम् श्वेलितैर्यघोषैश्च नभःस्फुटदिवाभवत् पादाघातैश्च दैत्यानाम् विदद्रे वसुधातलम्
कदा नो दुर्धरस्तस्य मितश्चर्विकरालकः भाष्करो दुर्मुखश्चण्डः प्रचण्डाश्चामरासुरः महाहनुर्मुहामौले रुग्रास्यो विकटे क्षणः ज्वालास्यो दहनश्चेमे सेनान्योऽपि प्रतस्थिरे
कोलाहलमिमम् श्रुत्वा देवी विरिपीट
कोलाहलमिमम् श्रुत्वा देवी नियममिघ्रतः शङ्किता दैत्यसंभृत्यै दुर्गामादिशति स्म सारुणाद्रिरहो द्रोण्याम् अधिरूढा मृगाधिपम् दीप्तायुध धरैर्द्रोभिः कालिके वमहीम् गता
घनाघनरवोदग्रम् सिंहनादम् अचीकरत् स्फुरद्दन्तच्छदोपान्तम् वल्गदङ्गुलिपल्लवा स्वाङ्गेभ्यो योगिनी चक्रम् मातरोऽप्यसृजन्नृषा देव्याः प्रियाय दैतेयसंहारार्हा सहस्रशः काश्चित्तत्रारुणच्छाया दण्डिन्यो हंसवाहनाः मुखैश्चतुर्भिराजग्मुः कोपप्रस्फुरिदाधरैः
निर्ययुः काश्चन क्रुद्धा ज्वलत्रिशिखपाणयः निःस्वनद्भूषणा पंस्व ललाटा वृषवाहनाः
निर्ययुः काश्चन क्रुद्धा ज्वलस्त्रिशिखपाणयः निःस्वनद्भूषणाः पंसल्ललाटा वृषवाहनाः
निर्जग्मुरपरा सेनासहिता शिखवाहनैः शिखिवाहनैः शक्तिदण्डाभयकराः शतषड्भिराननैः निश्चक्रमः परास्त्यार्क्ष्या मधिरुक्षाधिकदृधा कृधा शङ्खचक्रधरा सूर्यश्चन्द्रमोऽभ्याम् दिवो यथा शङ्खचक्रधरा सूर्य चन्द्रमोऽभ्याम्
निर्ययुः काश्चन क्रुद्धा ज्वलत्रिशिखपाणयः निःस्वनद्भूषणाः पंसल्ललाटा वृषवाहनाः निर्जग्मुरपरा सेनासहिताः शिखिवाहनैः शक्तिदण्डाभयकराः शतषड्भिरान्नैः निश्चक्रमुः परास्तार्क्ष्यम् अधिरुह्याधिककृधा शङ्खचक्रधरा सूर्यचन्द्रमोऽभ्याम् दिवो यथा प्रतिष्ठन्ते तथा व्याघ्रवाहाः कुवल यद्विषः पोत्रैः सद्दर्घरारावैः बिभ्रत्यो मुसलम् हलम्
रोषारुणसहस्राख्यो वरक्षद्विभवाहनाः प्रतस्थिरेशातकोटि शतकोटिधराः पराः अश्वारूढा समापेतुः एका सौदामिनी निभाः खड्गखेटकधारिण्यः कोपेन कपिलाननाः ताश्च कोटिचतुष्षष्ठिम् असुरा आश्रमाद्बहिः अरुन्धन् प्रसभम् ध्वान्त आशीनिव रवैस्त्विषः ततश्च योगिनी चक्र दानवानीकयोर्मिथः प्रावर्ततरणम् घोरम् मुष्टामुष्टिकचापचिः सायकैर्योगिनैर्मुक्तैः दरिता दैत्यमौलयः ఆచ్ఛాదయన్మహి పృష్టం స్థలజానీవ సర్వతః
రసస్రూర ప్రసరితో మృగత్ కైశిక శైవలాః లుఠద్విప రసస్రూరప్రసరితో లగత్ కైశిక శైవలాః లుఠద్విపాఠ పాఠీనాః స్మేరైర్దేవీముఖాంబుజైః వేతండతుండాన్యారుహ్య సౌధానిమపి శాచికాః ప్రచండతాండవాః పీతరక్తమద్యాశ్చ కాశిరే కపాలైర్దైత్యవీరాణాం అఘాసుర సృగాసవాన్ క్రీడడ్డమరుకాకారైః డామరైర్యోగినీగణాః
పరిజగ్రస్తధాత్రాణి కంకౌఖా పాశశంకయా క్షుదితాక్షాతిమాంసాది సశల్యాభ్యజహుశివః సిద్ధ్య విద్యాదరోన్ముక్త మందార ప్రసవాసదైః ఇయాయ శాంతిం భూరేణుః సంగ్రామే శోభ సంభవ విరేయుర్యోగిని ముక్తైః దేహలగ్నేర్ద్విషాం హయా అమర్షాతిశయోత్ప్తైః రశ్రైశల్యా పరిజన్నస్తథాంత్రాణి కంకౌఖాః పాశశంకయా క్షుదితా అపి మాంసాని సశల్యాన్యజహుశివాః సిద్ధ విద్యాధరోన్ముక్త మందార ప్రసవాసదైః ఇయాయ శాంతిం భూరేణుః సంగ్రామే క్షోభ సంభవః విరేజుర్యోగినీ ముక్తైః దేహలగ్నైర్ద్విషాం హయాః అమర్షాతిశయోత్క్షిప్తైః శల్యైః శల్యమృగాయువ దండైః కేచిత్పరేశూలైః నిశితైః కేపి శక్తిభిః చక్రైరన్యే హరైరేకే కతిచిచ్ఛతకోటిభిః యోగినీనాం పరే ఖడ్గైః దళితా దానవేశ్వరాః నిశ్శేషతాముపాజగ్ముః వినాశేనాభిపాన్నిజాన్ బ్రాహ్మే స్వయముపాగమ్య విహితాయోధనావధీత కరాలంబికరాలేన దండేన జ్వలితాచిరాత్
మాహేశ్వరీ త్రిశూలేన సుచిరం కృతంగరా చకర్త దుర్ధరస్యాశు మూర్ధానం అతిరోషణా శక్త్యానులావ కౌమారీ చిక్షురాసుర మస్తకం చక్రేణ చాలునాన్ మౌనిం వికారాలస్య వైష్ణవి బాష్కలస్యాశు వారాహి ముసలేనరుణాక్షిర దుర్ముఖం చాశు వజ్రేణ వ్యధాదైంద్రీ గతాయుషం ఖ్యాతం యస్యాశ్చ నామేదం తయోరేవ నిదూషణాత్ చాముండా చండముండౌ చ మండలాగ్రేణ చిచ్చిరే
ప్రచండ చామరం వీరౌ మహాహనుమ ఉగ్రాస్య వికటాక్షౌ చ జ్వాలాస్య దహనామపి అనుజగ్ముః క్రుధాయాంతం యుద్ధాయ మహిషాసురం కాలనేమి ప్రభృతయో విప్రచిత్తిమివాసురాః శిరస్రవంతో రథినః సునిషంగాధనుర్ధరాః ఉద్ధూతకటకాః ప్రాపుః యుద్ధభూమిం చదధ్వజాః సమంతాత్ పురితరిషః సింహనాథైర్భయంకరైః పృషత్కవర్షిణో మాతృ మండలాన్యభిదుద్రువుః తాశ్చ తైర్బలిభిః కృత్వా సంగ్రామం నిస్సహత్వతః దుర్గాం ప్రపేదిరే దేవీం శరణం సింహవాహనాం ఉక్త్వా మాయాలురాజస్య యుద్ధయత్వం దురాత్మనః దేవీం తాం తుష్టువర్దుర్గాం ఏవం సప్తాపి మాతరః
యోగనిద్రేతి రూపేణ విష్ణోర్నయన పద్మయోః త్వయా నిలీయతే దేవి మధుకార్యేవ లీలయా అమూముహస్తం న తథా మాతశ్చ మధువైటభో కథం జఘానతౌ విష్ణు తయోరైవాభ్యనుజ్ఞయా త్వం కౌశికీ న చేజ్జాత మృత్యుః శుంభనిశుంభయోః కథంతు లోకపాలానాం ఐశ్వర్యం దేవి ఏష్యతి వింధ్యవాసిని వింధ్యేన కిమమంధ్యం కంతపః యత్ర మైత్రీ కిరాతీభిః అపి లభ్యా త్వయా సమం
कापिशायनमापीतम् धनदोपायने कृतम् त्वयाम्बनीतम् दैत्यानाम् रसैर्नियतमानवैः ब्रह्मणः सृष्टिशक्तिस्त्वम् स्थितिः शक्तिर्मधुद्विषः अम्बसंभारशक्तिश्च रुद्रस्यापि प्रकल्पसे यशोदानन्दजाता त्वम् एकारंशेति नामतः कंसाद्यसुरसंभारे हरे साक्ष्यम् करिष्यसि त्वम् विद्या त्वम् महामाया त्वम् लक्ष्मीस्त्वम् सरस्वती त्वम् देवी पार्वती शाति दुर्गे किम् वा न जायसे।
नन्दिकेश्वर उवाच स्तोत्रेणानेन मातृभ्यो दुर्गा दत्ताभयास्वयम् महिषासुरयुद्धाय सन्तुष्टा
निर्ययौ तदा
प्रचण्डमण्डलाग्रेण भिण्डिपालेन चामरम् महामौलिम् क्षुरिकया कर्परेण महाहनुम् उग्रवक्त्रम् कुठारेण शत्या विकटचक्षुषम् ज्वालामुखम् गरेण दहनम् मुसलेन च निहत्य महिषस्याग्रे सरोषम् युध्यति स्वयम् सिंहनादम् महाघोरम् चक्रेण उदिताशया।
अथात्यमर्षितो दुर्गाम् विशिखैर्महिषासुरः विव्याधफालफलके स्तनयोर्गण्डयोरपि ततो दुर्गाथ सम्ब्रह्मात प्रजहारासुरेश्वरम् बाह्वोर्वक्षसि वक्त्रे च क्षुरप्रैः प्रज्वलत्कलफलैः ततो दैत्यस्त्रिभिर्दुर्गाम् जघानविशिखैर्मुखे पञ्चभिः पञ्चभिर्बाह्वोः द्वाभ्याम् द्वाभ्याम् च नेत्रयोः एकेन सारथिम् रथ्या नष्टभिः कार्मुकन्त्रिभिः चतुर्भिश्च ध्वजम् तस्य दुर्गाचिच्छेदसायकैः पदातिरथदैत्येन्द्रः शतग्नीम् ज्वलदाकृतिम् कारदण्डप्रतीकाशाम् दुर्गाम् प्रतिविमुक्तवान्।
हा हा कुर्वत्सु देवेषु विद्राणे मातृमण्डले तामापतन्ती मादाय दुर्गा जग्राहलीलया कृपाणमङ्कुशम् पाशम् भुषुण्डीम् करवालिकाम् शङ्कुम् शक्तिम् गदाम् चक्रम् तोमरम् फलकम् सृणिम् परश्वधम् भिण्डिपालम् पट्टिशम् लगुडम् च सह दुर्गाम् प्रति चिचिक्षेपक्षयाभोद इवाशनिम्। आपतन्त्येव शस्त्राणि क्षिप्तान्यादाय वैरिणाम् बभञ्जपाणिभिः स्वैरम् करिणीवेक्षुकाण्डकम् दुर्गोपवाह्य सिंहोऽपि लाङ्गूराग्रेण मुद्रितम् दंष्ट्रयादारयामास प्रहरन्नखपङ्कजैः।
क्षणम् सिंहः क्षणम् गोक्रोढः क्षणम् व्याघ्र क्षणम् गजः क्षणम् च महिषी भूत्वा दैत्यो दुर्गामयोद्धयत। महिषोऽथ विषाणाभ्याम् तीक्ष्णाभ्याम् अत्यमर्षितः ताडयामाथ सिंहम् च देवीमपि मुहुर्मुहुः। क्षणम् गगनमध्यस्थः क्षणम् प्राप्तो महीतले क्षणम् दिक्षुभ्रमन् प्राप्तः क्षणम् चादृश्यताङ्गतः प्रार्थिता मातृचक्रेण दुर्गा महिषदानमम् अमोघेन त्रिशूलेन धारयामासस्मिताम् मुक्त घर्घर निर्घोषो यावत्पतति दानवः तावदस्य हठेनाङ्घ्रिम् स्कन्धपीठेऽन्यपेशयत। कण्ठपीडनतो यात जीवितस्यामरद्रुवः छिन्नम् मूर्धानमादाय पाणिनाथननर्तसाम् इति दुर्गया समिति कासरासुरे दलिते समस्तभुवनैककटकण्टके। ननर्तुस्सुरा प्रजहोममर्षयोः ववर्षुश्च दिव्यकुसुमानि वारिदाः। इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्याम् संहितायाम् प्रथमे माहेश्वरखण्डे अरुणाचलमाहात्म्य उत्तरार्धे देव्याः तपश्चर्यायाम् दुर्गाकृतमहिषासुरवध वर्णनम् नाम एकोनविंशोऽध्यायः। अथ विंशतितमोऽध्यायः पार्वतीकृत अरुणाचलेश्वरस्तुतिवर्णनम्। मार्कण्डेय उवाच अहो महिष दैत्यस्य दुराचारत्वमीदृशम् अहो दुरितहारिण्या दुर्गायाश्च पराक्रमः एवम् तया भद्रकाल्या निहते महिषासुरे किञ्चकारगिरीन्द्रस्य नन्दिनी तपसि स्थिता.
नन्दिकेश्वर उवाच अनन्तरम् सा हस्तेन ददति दैत्यमस्तकम् न नाम गौरीमन्येन पाणिना खड्गधारिणा असहर्षेण नृत्यन्तीम् ताम् आलोक्य दयार्द्रया दृष्ट्या देवी जगादैनाम् दन्तांशुद्योतिताम्बरा त्वया दुष्करम् कर्म निर्मितम् मिन्ध्यवासिनि जातम् तव प्रभावेण निष्प्रत्यूहम् चमेतमः अथैतन्मानिषम् शीर्षम् अपवित्रम् भयङ्करम् अपवित्रम् भयङ्करम् जगत्पवित्रचारित्रे त्यक्तुमर्हसि हस्ततः इति गौर्योदिता.
इति गौर्योदिता दुर्गा जुगुप्सा कुलमानसा मूर्ध्वस्तस्य निपाताय व्यधुनोद्बहुषःकरम् तीर्थमुत्पाद्यताम् देवी नमम् पापविनाशनम् तस्मिन् निमज्जनाद्दुर्गे प्रायश्चित्तम् भविष्यति इति रिता गौतमेन दुर्गा दुरितशङ्किनी पाचयामास खड्गेन शिलापट्टम् पटीयसाम् पातालावधि निर्भिन्नात पाषाणतलतस्ततः उदजृम्भस्तरङ्गाम्भः सचित्तमिव निर्मलम्
ममज्जसापि गम्भीरे तस्मिन्नम्भसि पावने नमः शोणाद्रिनाथायेत्युक्त्वा मन्त्रम् अनुत्तमम्
उत्क्रामन्तम् इति नमः
शोणाद्रिनाथाय ममज्जसापि गम्भीरे तस्मिन्नम्भसि
ममज्जसापि गम्भीरे तस्मिन्नम्भसि पावने नमः शोणाद्रिनाथाय इत्युक्त्वा मन्त्रमनुत्तमम् तावन्महिषकण्ठस्थम् लिङ्गम् तद्गलितम् तले तटे प्रतिष्ठितम् जातम् पापनाशन संज्ञयाम् उन्ममज्जततो दुर्गाम् तीर्थाम्भोधूककल्मषा विपपाताथ तत्पाणेः महिषासुरमस्तकम् कृतप्रदक्षिणा नत्वा पापनाशनमीश्वरम् पुरस्तादस्ति सा गौर्या गौतमेनाभिनन्दिता एवम् प्रत्यक्षनिरता पापाम् ताम् वीक्ष पार्वती जगाददीर्घतपसम् जगधीधरनन्दिनी महिषासुरसंभारे यथा स्वानुमतिः कृता विन्ध्यवासिनीयमहो दुष्टमाहिषविग्रहम् गृहीत्वा भक्षयामास तस्य लिङ्गमिदम् शिवम् प्रायश्चित्तम् ततो ब्रूहि ममापि मुनिसत्तम गौतम उवाच.
देवि सर्वजगत्सर्वस्थितिसंहारकारिणि त्वध्यानमेव जगताम् सर्वपातकनाशनम् अथापि लौकिकम् वृत्तम् अवलम्ब्य त्वयेरितम् स्वकृतापि हि मर्यादानमहद्भिर्विलङ्घ्यते अन्तःकरणकालुष्यक्षालिनी काचन क्रिया कथ्यतेऽद्य मया मातरवधानम् विधीयताम् अरुणाद्रिरयम् साक्षात् अनलाद्रिस्तिरोहितः ज्वलति ज्योतिषास्वेन कृत्तिका पूर्णिमानिषि तत्सपर्या तपश्चर्या कार्या कात्यायनी त्वया तज्योर्दर्शनात् सर्वम् अभीष्टम् तव सिध्यति.
इत्युक्ता गौतमेनाम्ब तदा प्रभृतिदाम्ना इयम् च शिवभक्ता हि शिवपूजारता तदा तपश्चकार पञ्चानाम् अग्नीनाम् मध्यमाक्षिता चतुर्णाम् शिखिनाम् मध्ये स्थिता सूर्य निविष्टदृक रेजे हैमीशलाकेन द्यौतम्ना द्यौत ಹೈವೀಶಲಾಕೇನ ದ್ಯೋತಮಾನಾಗಿರೀಂದ್ರಜ ಅಥ ಕೃಷ್ಟೇವ ಪಾರ್ವತ್ಯಾಃ ಪ್ರೇಮ ಪಾಶೈರ್ನಿರಾಯತೈಃ ಸಾಕಾತ್ತಿಕಿ ಪೌರ್ಣಮಾಸೀತ್ ಸಮಾಪೇತೇಷು ಮಾತಿಥಿಃ ತತಸ್ತಸ್ಯದಿರಸ್ಯಾಂತೆ ಶೃಂಗೇಶೋಣ ಮಹೀಭೂತ ಎಲ್ಲ ರಿಪೀಟ್ ಅಲ್ಬತ್ತ
ರೇ ಜೇ ಹೈಮಿ ಶಲಾಕೇವ ದ್ಯೋತಮಾನ ಗಿರೀಂದ್ರಜ ಅಥ ಕೃಷ್ಟೇವ ಪಾರ್ವತ್ಯಾಃ ಪ್ರೇಮ ಪಾಶೈ ನಿರಾಯತೈಃ ಸಾ ಕಾರ್ತಿಕೀ ಪೌರ್ಣಮಾಸಿ ಸಮಾಪೇದೆ ಶುಭಾತಿಥಿಃ ತತಸ್ತಸ್ಯ ದಿನಸ್ಯಾಂತೆ ಶೃಂಗೇಶೋಣ ಮಹೀಭೃತಃ ಅದರ್ಶಿ ಕಿಮಪಿ ದ್ಯೋತಿಃ ಅನುಪಾಹಿಕ ವೈಭವಂ ತದರ್ಥೋಪಗತೈರ್ಬ್ರಹ್ಮ ಮಧುವಿದ್ವಾಸವಾದಿಭಿಃ ಉಪಾಸ್ಯಮಾನಮಭಿತೋ ದೇವೈರ್ದಿವ್ಯರ್ಷಿ ಸಂಗತೈಃ
ಉಪಾಸ್ಯಮಾನಮಭಿತೋ ದೇವೈರ್ದಿವ್ಯರ್ಷಿ ಸಂಗತೈಃ ತದನಿಂಧನಮಸ್ನೇಹಂ ಅದಶಾವರ್ತಿ ಸಂಭವಂ ಮಹಾಪ್ರದೀಪಮಾಲೋಕ್ಯ ವಿಸ್ಮಯಂ ಪ್ರಾಪ್ಯ ಪಾರ್ವತಿ ಪ್ರದಕ್ಷಿಣಾಥಾಥ ಋಣನಂದೇ ಪದೇ ಪದೇ ಅರುಣಾದ್ರೀಶ್ವರಂ ನಾಥಂ ತುಷ್ಟಾ ತುಷ್ಟಾವಶೈಲಜ ನಮಸ್ತೆ ಮೇರುಚಾಪಾಯ ಕೈಲಾಷಾಚಲವಾಸಿನಿ ನೀಹಾರಶೈಲಜಾ ಮಾತ್ರೆ ಶೋಣಕ್ಷ್ಮಾಧರ ರೂಪಿಣಿ ವರುಣಾದಿಸುರಾರ್ಚಾಯ ತರುಣಾದಿತ್ಯವರ್ಚಸೆ ಅರುಣಾಚಲನಾಥಾಯ ಕರುಣಾಮೂರ್ತಯೇ ನಮಃ ಜಯ ಜಹ್ನಸ್ತುತಾಚಂದ್ರ ಲೇಖಾಲಂಕೃತಶೇಖರ ಸೌಂದರ್ಯಮೋಹಿತಾಶೇಷ ಮುನಿಪತ್ನೀಜನಾಶಯ ಜಯ ಶೈಲಸುತಾಸಂಗ ಸಂಹೃತಾನಂಗವೈಭವ ಮಾಯಾನಾರಾಯಣಾಂಭೋಗ ಕ್ರೀಡಾಂಭ್ರೇಡರ ಪಂಡಿತಾನ್ ಜಯ ಸಂಧ್ಯಾ ಸಮೂಪೇತಾನ್ ಸಂಹೃತಾನಂದತಾಂಡವ ಜಯ ಗೀರ್ವಾಣ ಗಂಧರ್ವ ಸಿದ್ಧವಿದ್ಯಾಧರಾರ್ಪಿತಾನ್ ಜಯ ಹೇರಂಬ ಜನಕ ಜಯ ಷಣ್ಮುಖವತ್ಸಲ ಜಯ ಹೈಮವತಿ ಪ್ರಾರ್ಥ ಜಯ ಪಾರ್ಥಿವ ದುರ್ಲಭ ಇತಿ ಸ್ತುತ್ವಾ ಮುಹುಸ್ತಸ್ಮಿನ್ ಜ್ಯೋತಿಷಿಸ್ನ್ಯಸ್ತಲೋಚನಾಂ ದೃಷ್ಟ್ವಾ ದೇವೀಂ ದಯಾಂ ವ್ಯಾಜಾತ ವಿಲಿಲ್ಯೇ ವೃಷಭದ್ವಜ ದಯಿತ್ವಾ ನಿಜಮಾಸ್ಥಾಯ ರೂಪಮುತ್ಕಟಸುಂದರಂ ಆಸ್ಥಾಯ ವೃಷಭಂ ದಿವ್ಯಂ ಅದೃಷ್ಟ್ವಾ ದಿವ್ಯಂ ಅಮೂಂ ದೃಷ್ಟ್ವಾ ಶಿವಾಂ ಶುಭಾಂ ಮಾನಾತಿರೇಕಾ ದಪಹಾಯ ಸರ್ವ ಐಶ್ವರ್ಯಮೇವಂ ತಪಸಿ ಪ್ರವೃತ್ತಾಂ ಮುಗ್ಧಾಂ ಪುನಸ್ಸಾಂ ತ್ವಯಿತಂ ಗಿರೀಶಃ ಪ್ರಜಕ್ರಮೇ ಪರ್ವತರಾಜಪುತ್ರೀಂ ಇತಿ ಶ್ರೀಸ್ಕಾಂದೇ ಮಹಾಪುರಾಣ ಏಕಾಶೀತಿ ಸಹಸ್ರಾಂ ಸಂಹಿತಾಯಾಂ ಪ್ರಥಮ ಮಾಹೇಶ್ವರ ಖಂಡಾಂತರ್ಗತೆ ದ್ವಿತೀಯೇ ಕೌಮಾರಿಕಾಖಂಡೇ ಅರುಣಾಚಲ ಮಹಾತ್ಮ್ಯ ಉತ್ತರಾರ್ಧೆ ಪಾರ್ವತೀಕೃತಾರುಣ ಶಲೇಶ್ವರ ಸ್ತುತಿ ವರ್ಣನ ನಾಮ ವಿಂಶತಿತಮೋಧ್ಯಾಯ ಓಂ ಶ್ರೀ ಅರುಣಾಚಲಾರ್ಪಣಮಸ್ತು.